Sairam dear listeners, and welcome back to the studios of Radio Sai Prashanthinilayam, giving you a live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwanth Hall have completed just now, it's now time for us to go to the next segment of this Thursday's evening session live program. And this is Team Radio Sai's Ganesh inviting you all to yet another new episode of Radio Sai Vedam Tutor. And without any further delay, we shall hand over the stage to Praveena sir to continue with the Aruna Prashnam. Over to Praveena sir.
Om Sri Sai Ram. We shall commence with Ganesha Prarthana Mantra chanting together.
Om Gananaam Tva Ganapati Gum Hava Mahe Kavim Kavinam Upamashravastamam Jeshtharajam Brahmanam Brahmanaspatana Shrunvannoti Vissida Sadhanam Prano Devi Saraswati Vajivir Vajinivati Dhinama Vitriyavato Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Harihi Om Bhadram Karne Vishruyama Devaha Bhadram Pashye Makshabhirya Jatraha Sirayangai Estustuvagum Sastanubhi Vyashema Devahi Tanyadayuhu Swastina Indro Vriddhashravaha Swastina Pusha Vishwavedaha Swasti nastarksho arishtanimihi Swasti no brihaspatir dadhato Om Shanti Shanti Shanti
Sai Ram, before we take up the new paragraph, let's revise once what we had learnt in the previous class. Starting from the paragraph 113, we shall chant each sentence twice, then we'll go for the new paragraph. We'll chant together.
Om Imanu Kambhuvanashisha Dhema Imanu Kambhuvanashisha Dhema Indrascha Vishvecha Devaha Indrascha Vishvecha Devaha Yajnyancha Nastanvancha Prajancha Yajnyancha Nastanvancha Prajancha
Please repeat after me. Yajnyancha
Yajnyancha Yajnyancha
Nastanvancha
Nastanvancha Nastanvancha
Prajancha
Prajancha Prajancha
Yajnyancha Nastanvancha Prajancha
Yajnyancha Nastanvancha Prajancha Yajnyancha Nastanvancha Prajancha
Adityairindra Sahasisha Dhatu
Adityairindra Sahasisha Dhatu Adityairindra Sahasisha Dhatu Adityairindra Sahasisha Dhatu Adityairindra Sahasisha Dhatu
Please repeat after me.
Adityairindra Sagano Marudbhihi Adityairindra Sagano Marudbhihi Adityairindra Sagano Marudbhihi
Asmakam Bhutva Vita Tanunam
Asmakam Bhutva Vita Tanunam Asmakam Bhutva Vita Tanunam
Aplavasva Praplavasva
Aplavasva Praplavasva Aplavasva Praplavasva
Andi Bhava Jama Muhu
Andi Bhava Jama Muhu Andi Bhava Jama Muhu
Sukhadin Dukkha Nidhanam
Sukhadin Dukkha Nidhanam Sukhadin Dukkha Nidhanam
Pratimuncha Swaswam Puram
Pratimuncha Swaswam Puram Pratimuncha Swaswam Puram
Marichaya Swayam Bhuvah
Marichaya Swayam Bhuvah Marichaya Swayam Bhuvah
E Shariranya Kalpayan
E Shariranya Kalpayan ये शरीरान्य कल्पयन्न
ते देहं कल्पयन्तु
ते देहं कल्पयन्तु ते देहं कल्पयन्तु
माचते ख्यास्मते ऋषत
माचते ख्यास्मते ऋषत माचते ख्यास्मते ऋषत
उत्तिष्ठतमास्वप्ता
उत्तिष्ठतमास्वप्ता उत्तिष्ठतमास्वप्ता
अग्निमिच्छध्वं भारताः
अग्निमिच्छध्वं भारताः अग्निमिच्छध्वं भारताः
राज्ञः सोमस्य तृप्ता सः
राज्ञः सोमस्य तृप्ता सः राज्ञः सोमस्य तृप्ता सः
सूर्येण सयुजोषसः
सूर्येण सयुजोषसः सूर्येण सयुजोषसः
युवा सुवासाः
युवा सुवासाः युवा सुवासाः
अष्टाचक्रानवद्वारा
अष्टाचक्रानवद्वारा अष्टाचक्रानवद्वारा
देवानां पुरयोध्या
देवानां पुरयोध्या देवानां पुरयोध्या
तस्यागुं हिरण्मयः कोशः
तस्यागुं हिरण्मयः कोशः तस्यागुं हिरण्मयः कोशः
स्वर्गो लोको ज्योतिषावृतः
स्वर्गो लोको ज्योतिषावृतः स्वर्गो लोको ज्योतिषावृतः
स्वर्गो लोको ज्योतिषावृतः
स्वर्गो लोको ज्योतिषावृतः स्वर्गो लोको ज्योतिषावृतः
द ज्योति यू कैन गिव लिटिल पंच ऑन दैट पर्टिकुलर सिलेबल बिकॉज द दीर्घस्वर फॉलोड बाय द संयुक्ताक्षर इज ज्योति स्वर्गो लोको ज्योतिषावृतः
स्वर्गो लोको ज्योतिषावृतः स्वर्गो लोको ज्योतिषावृतः
यो वैताम् ब्रह्मणो वेद
यो वैताम् ब्रह्मणो वेद यो वैताम् ब्रह्मणो वेद
अमृतेनावृताम् पुरीम्
अमृतेनावृताम् पुरीम् अमृतेनावृताम् पुरीम्
तस्मै ब्रह्म च ब्रह्म च
तस्मै ब्रह्म च ब्रह्म च तस्मै ब्रह्म च ब्रह्म च
वायुः कीर्तिम् प्रजां ददुः
वायुः कीर्तिम् प्रजां ददुः वायुः कीर्तिम् प्रजां ददुः
की डस् नाट् गेट् डौन्लोड् इण्टर्नेशन् आयुः कीर्तिम् प्रजां ददुः
आयुः कीर्तिम् प्रजां ददुः आयुः कीर्तिम् प्रजां ददुः
विभ्राजमानागुम् हरिणीम्
विभ्राजमानागुम् हरिणीम् विभ्राजमानागुम् हरिणीम्
यशसा सम्परिवृताम्
यशसा सम्परिवृताम् यशसा सम्परिवृताम्
पुरगुम् हिरण्मयीम् ब्रह्मा
पुरगुम् हिरण्मयीम् ब्रह्मा पुरगुम् हिरण्मयीम् ब्रह्मा
विवेशा पराजिता
विवेशा पराजिता विवेशा पराजिता
पराङ्गे त्यज्यामयी
पराङ्गे त्यज्यामयी పరాంగేత్యనాశకి
విద్వాన్ దేవాసురానుభయాన్
యత్కుమారీ మంద్రయతే యద్యోషిద్యత్పతివ్రత అరిష్టం యత్కించ క్రియతే
అగ్నిస్తదనువేధతి అశ్రుతా సశ్రుతా సశ్చ యజ్వానో యజ్వానో ఏప్య యజ్వనః స్వర్యంతో నాపేక్షంతే ఇంద్రమగ్నిం చ యే విదుః సికత ఇవ సంయంతే రశ్మిభిస్సముదీరితాః అస్మాల్లోకాదముష్మాచ్చ ఋషిభిరదాత్ ప్రశ్నిభిః
అపేత వీత విచ
అపేతవీతవిచ సర్పతాతః
అపేతవీతవిచ సర్పతాతః
If you see the wordings, apeta, not apaita, apeta, vita, the ta syllable gets downward intonation, anudatta, cha goes upward, sarpatatah, pa again comes down, the last syllable ta again goes up.
అపేతవీతవిచ సర్పతాతః
ఏ చ నూతనాః
ये त्रस्थ पुराणा ये च नूतनाः
अहोभिरद्भिः
अक्तुभिर्व्यक्तम्
अहोभिरद्भिरक्तुभिर्व्यक्तम् नो दिस पैराग्राफ विल चैंट ईच सेंटेंस ट्वाइस
यज्वानो येऽप्ययज्वनः स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निञ्च ये विदुः सिकता इव संयन्ते रश्म्यभिः समुदीरिताः अस्माल्लोकादमुष्माच्च ऋषिभिरदात् पृष्णिभिः अपेतवीतविच सर्पतातः ये त्रस्थ पुराणा ये च नूतनाः अहोभिरद्भिरक्तुभिर्व्यक्तम् यमो ददात्वभसानमस्मै
नृमुणन्तो
नृपात्वर्यः नृमुणन्तु नृपात्वर्यः अकृष्टाये च कृष्टजाः
कुमारेषु कनीनीषु
जारिणीषु च ये हिताः
जारिणीषु च ये हिताः रेतः पीता
आण्डपीताः
रेतः पीता आण्डपीताः
अङ्गारेषु च ये हुताः
उभयान्
उभयान
पुत्र पौत्रकान्
युवेहं यमराजगान्
शतमिन्नु शरदः
me doesn't go up
शतमिन्नु शरदः अधो यद्ब्रह्म विलभम् पितृणां च यमस्य च
वरुणस्याश्विनोरग्नेः
मरुताञ्च विहायसाम्
काम प्रयवणं मे अस्तु
सख्येवास्मि सनातनः
सह्येवास्मि सनातनः
इति नाको
ब्रह्मिश्रयो रायोधनम्
इति नाको ब्रह्मिश्रयो रायोधनम् पुत्रानापो
देवीरिहाहिताः पुत्रानापो देवी रिहाहिता
Now we'll try to chant this paragraph, repeating each sentence twice. Yamodadat. From there we'll start. Yamodadat tvavasanam asmai. That is paragraph number 108. We'll chant together.
Om Yamodadat tvavasanam asmai. yamodatattvavasanamasmai nrumanantu nrupatvaryah nrumanantu nrupatvaryah akrishtaye cha krishtajah kumareshu kaninishu jarinishu chayehitah retah peta andapitah angareshu chayehutah Ubhayan putra pautrakan, yuveham yamarajagan, shataminnu sharadaha, adoyat brahma vilabam, Pitrunancha yamasya cha, varunasya ashvino ragneh, marutasya vihayasam, kama prayavanam me astu, sakhyevasmi sanatanah, iti nako brahmishravo rayodhanam, putranapo deve rihahita.
Now we'll chant the two new paragraphs that we'll learn today, that is starting from Yajvanu. We'll have the Samhita part of both these paragraphs. We'll not repeat each sentence twice. We'll merely chant the Samhita part.
Om Yajvani Yepya Yajvanaha Swaryanto Napekshante Indra Magnincha Ye Viduho Sikata Iva Sayyante Rashmi Vissa Mudirita Asma Lokata Mushmacha Rishi Viradat Prishni Vihe Apeta Vita Vicha Sarpatataha Yetra Rashta Purana Yetra Nutanaha Aho Viradviraktu Virvyaktam Yamodadatva Vasanamasmai Nrumanantu nrupatvaryah akrishtaye chakrishtajah kumareshu kaninishu jarinishu chayehitah retapetah andapetah angareshu chayehitah ubhayan putrapautrakan yuveham yamarajagan shataminnu sharadah adoyat brahma vilavam pitrunancha yamasya cha varunasya ashvino ragneh marutascha vihayasam kama prayavanam me astu sakhyevasmi sanatanah iti nako brahmishvyo rayodhanam putranapo deve rihahita Bhadram karne vishrunuyama devah Bhadram pashye maksha viryajatrah Sthirai rangai sushtuvagum sastanobhi Vyashema devahi tayyadayuhu Swastina indro vriddhashravah Swastina pusha vishvavedah Swasti nastarkshu arishtanimihi Swasti no brihaspatir dadhatu Om
Shanti, shanti, shanti.
Yadakshara
parabrashtam matra hinantu yad bhavet. Tat sarvam shamyatam deva narayana mostute. Vidarbindu matrani padapadaksharani cha. Nyuna nichati riktani kshamasvasa ishvara. Aparada sahasrani kriyante harnishanmaya. Dasoyam mitmamatva kshamasvasa ishvara. Anyatha sharanam nasti tvameva sharanam mama. Tasmat karunya bhavena raksha raksha saishvara. Harihi om tat sat sri saishvara arpanamastu.
With this we come to an end to this week's Radio Sai Vedam Tutor. In the coming class we shall continue with the Aruna Prashnam. And now it's time for us to go to the next segment of this Thursday's evening session of the Vedam. Sorry, evening session of this Thursday live program. Radio Sai Bhajan Classroom, hosted by Brother Vishu. Sai Ram and happy listening. Over to Vishu.